इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः सायंकाले 18वें प्रवासी भारतीय दिवस सम्मेलने भागग्रहणाय भुवनेश्वर नगरं सम्प्राप्तवान्। प्रधानमन्त्री अद्य भुवनेश्वरस्य जनता मैदान इत्यत्र सम्मेलनस्यास्य औपचारिकोद्घाटनं विधास्यति। अपरत्र राष्ट्रपतिः द्रौपदी मुर्मुः अपि शुक्रवासरे सम्मेलनस्य समापन समारोहे भागं ग्रहीतुम् अद्य सायं समये भुवनेश्वरं सम्प्राप्स्यति। राष्ट्रपतिः विभिन्नेषु क्षेत्रेषु अधिगतोपलब्धीनां कृते प्रवासी भारतीय समुदायस्य सदस्येभ्यः प्रवासी भारतीय सम्मानमपि प्रदास्यति। त्रिदिवसात्मकः प्रवासी भारतीय दिवसः ह्यः युव प्रवासी भारतीय दिवसस्य उद्घाटनसत्रेण सह समारब्धः, यस्मिन् विदेशमन्त्री डॉ एस जयशंकरः, युव विषयक क्रीडा मन्त्री डॉ मनसुख मांडवीयाः च सम्मिलितौ अभवताम्। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्यारभ्य मेघालय ओडिशा राज्ययोः यात्रां विधास्यति। राष्ट्रपतिः मेघालय राज्यस्य उमियम स्थले पूर्वोत्तर पर्वतीय क्षेत्रस्य आईसीएआर इत्येतस्य अनुसन्धान परिसरस्य स्वर्ण जयन्ती समारोहे सहभागितां निर्वक्ष्यति। तदनु श्वः 10वें दिनांके प्रवासी भारतीय दिवस सम्मेलने भागं भजिष्यति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः आन्ध्रप्रदेशस्य विशाखापत्तनमस्थले 2 लक्षकोटिरूप्यकाणां विविध विकास परियोजनानां उद्घाटनं कृत्वा राष्ट्राय च समर्पितवान्। श्रीमोदी विशाखापत्तनमस्थलं निकषा पूडीमढाका इत्यत्र अत्याधुनिकस्य एनटीपीसी ग्रीन एनर्जी लिमिटेड इत्येतस्य ग्रीन हाइड्रोजन हब इत्येतस्याः परियोजनायाः आधारशिलां स्थापितवान्। अस्याः परियोजनायाः कृते 85,100,000 कोटि रूप्यकाणां निवेशः जातः। अत्रावधौ प्रधानमन्त्री विशाखापत्तनमस्थले आन्ध्रविश्वविद्यालयस्य अभियान्त्रिकी महाविद्यालयस्य क्रीडांगणे जनसभां सम्बोधयन् उक्तवान् यत् एनडीए इति प्रशासनं आन्ध्रप्रदेशस्य सकलविकासाय प्रतिबद्धं वर्तते। रक्षामन्त्री राजनाथसिंहः मालदीवस्य रक्षामन्त्रिणा मोहम्मद घसान मैमुनेन सह नवदिल्लीनगरे सम्मेलनं व्यदधात्। सम्मेलनावधौ उभौ नेतारौ उभयोः देशयोः मध्ये विविध रक्षाविषयेषु यथा सैन्याभ्यास रक्षापरियोजनादिषु विषयेषु चर्चां कृतवन्तौ। अस्मिन्नवसरे रक्षामन्त्रिणा प्रोदीरितं यत् भारतं सततं मालदीवस्य सैन्यशक्तेः प्रवर्धनाय साधनानि उपलब्धानि कारयति। मालदीवस्य रक्षामन्त्री भारतस्य त्रिदिवसीय यात्रायाम् अस्ति। एकं राष्ट्रं एकं निर्वाचनम् इत्यनेन सम्बद्धस्य विधेयकद्वयस्य विषये संयुक्त संसदीय समितेः प्रथमोपवेशनं ह्यः राष्ट्रिय राजधान्यां नवदिल्ल्यां समायोजितम्। एते विधेयके आधिकारिकरूपेण 39वें संविधान संशोधन विधेयकम् अथ च केन्द्रशासित प्रदेश विधि संशोधन विधेयकमिति नाम्ना अभिज्ञायते। वार्ताहरैः सह संवादे समितेः अध्यक्षः भाजपेति दलस्य सांसदः च पीपी चौधरी अवोचत् यत् प्रथमे दिवसे सम्बद्ध मन्त्रालयः अस्मिन् विषये विवरणानि अयच्छत्, अपि च एषा समितिः सर्वैः सदस्यैः सह मिलित्वा सर्वाः सम्बद्धाः सूचनाः स्वीकृत्य अग्रे गन्तुं निर्णयम् अपि करिष्यति। सूचना प्रसारण मन्त्री अश्विनी वैष्णवः ह्यः नवदिल्ल्यां दिव्याय महाकुम्भाय समर्पितम् आकाशवाणी दूरदर्शनाभ्यां विशिष्टं गीतद्वयम् उद्घाटितवान्। आकाशवाण्याः विशिष्टा रचना संगीतस्य गीतात्मक प्रस्तुतेः च समन्वयेन संयोगेन महाकुम्भस्य आध्यात्मिकं सांस्कृतिकं धार्मिकं च महत्वं निरूपयति। एतत् गीतं रतन प्रसन्ना इत्यनेन स्वरबद्धं कृतमस्ति। दूरदर्शनेन निर्मितं महाकुम्भ है इति पद्मश्री कैलाशखेर इत्यनेन गीतमस्ति। इदं गीतं महाकुम्भस्य भक्तिभावं उत्सवं जीवन्त सांस्कृतिक सत्यं च आवृणोति इति वार्ताः।